विष्णु सहस्रनाम महाभारत के अनुशासन पर्व में है। भीष्म पितामह ने युधिष्ठिर के सामने इसका पाठ दिया। इस स्तोत्र में वेद काल से लेकर पुराण काल तक ईश्वर के लिए जितने भी नाम का उपयोग हुआ है उनका संकलन है। विष्णु सहस्र नाम में शिव के नामों को भी विष्णु का पर्याय मान लिया गया है। लोकमान्य तिलक इसे भक्तिकोश कहते थे। भक्तगण आज भी इस स्तोत्र का नियमित पाठ करते हैं।
ओम नमो भगवते वासुदेवाय। ओम शिवम विष्णुर्वषट्कारो भूतभव्य भवत् प्रभुः भूतकृत् भूतकृद्भावो भूतात्मा भूतभावनः भूतात्मा परमात्मा च मुक्तानां परमागतिः अव्ययपुरुषः साक्षी क्षेत्रज्ञोऽक्षरैवज योगो योगविदान्नेता प्रधानपुरुषेश्वरः नारसिंह वपुश्रीमान् केशव पुरुषोत्तमः सर्वशर्वशिवस्थाणुर्भूतादिर्निधिरव्ययः सम्भवो भावनो भर्ता प्रभव प्रभुरीश्वरः स्वयम्भूशम्भुरादित्यः पुष्कराक्षो महास्वनः अनादिधनो धाता विधाता धातुरुत्तमः अप्रमेयो ऋषिकेश पद्मनाभोमरप्रभुः विश्वकर्मा मनुस्पर्ता स्थविष्ठस्थविरो ध्रुवः अग्राह्यशाश्वतकृष्णो लोहिताक्षप्रतरदनः प्रभूतस्थिकबुधामो पवित्रम् मङ्गलम् परम् ईशानः प्राणप्राणो ज्येष्ठश्रेष्ठ प्रजापतिः हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ईश्वरो विक्रमी धन्वी मेधावी विक्रमक्रमः अनुत्तमो दुराधर्श कृतज्ञ कृतिरात्मवान् सुरेशशरणं शर्म विश्वरेता प्रजाभवः अहस्संवत्सरो व्याध प्रत्ययसर्वदर्शनः अजःसर्वेश्वरसिद्धसिद्धिस्सर्वादिरच्युतः वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः वसुर्वसुमनाः सत्यस्समात्मा संवितः समः अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः रुद्रो बहुशिरा बभ्रुर्विश्वयो निश्विश्रवाः अमृतशाश्वतधाणुर्वरारोहो महातपाः सर्वगस्सर्वविद्भानुर्विश्वक्सेनो जनार्दनः वेदो वेदविदव्यङ्गो वेदाङ्गो वेदविद्कविः लोकाध्यक्षसुराध्यक्षो धर्माध्यक्षकृताकृतः चतुरात्मा चतुर्व्यूहश्चतुर्दंशश्चतुर्भुजः नाजिष्णुर्भोजनम् भोक्ता सहिष्णुर्जगदादिजः अनघो विजयो जेता विश्वयोनिः पुनर्वसुः उपेन्द्रो वामनप्रांशुरमोघश्चुजुरूर्जितः अतीन्द्रः सङ्ग्रहः सर्वो दृढात्मा नियमो यमः वेद्यो वैद्यस्वः योगी वीरः माधवो मधुः अतीन्द्रियो महामायो महोत्साहो महाबलः महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः अनिर्देश्यवपुश्रीमानवेयात्मा महादृदृग महेश्वासो महीभर्ता श्रीनिवासः सदाङ्गलिः अनिरुद्धसुरानन्दो गोविन्दो गोविन्दाम्बलिः महीषिर्दमनोहंसः सुपर्णो भुजगोत्तमः हिरण्यनाभः सुतपा पद्मनाभः प्रजापतिः अमृत्युस्सर्वदृक्सिंहः सन्धाता सन्धिमान् स्त्रियः अजो दुर्मर्षणशास्ता विश्वरात्मा सुरारिः गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः निमिषो निमिषस्रग्रीवाचस्पतिरुदारधीः अग्रणीर्ग्रामणी श्रीमान् न्यायो नेता समीरणः सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रभाद आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः अहस्संवर्तको वह्निरनिलो धरणीधरः सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः सत्कर्ता सत्कृतसाधुर्जन्धुर्नारायणो नरः असङ्ख्येयो प्रमेयात्मा विशिष्टशिष्टकृचिभिः सिद्धार्थसिद्धसङ्कल्पसिद्धिदसिद्धिसाधनः वृषाहि वृषभो विष्णुर्विषपर्वा वृषोदरः वर्धनो वर्धमानश्च विविक्तश्रुतिसागरः सुभुजो दुर्धरो वाग्भीमहेन्द्रो वसुतो वसुः नैकरूपो बृहद्रूपश्चिविष्टप्रकाशनः ओजस्तेजोद्युतिरः प्रकाशात्मा प्रतापनः वृद्धस्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः अमृतांशोद्धोवानुष्यशबिन्दुःसुरेश्वरः
औषधम्
जगदस्मे दुःसत्यधर्मपराक्रमः भूतभव्यपवन्नादः पवनः पावनो नरः कामः कामकृतान्तः कामः कामप्रभुः युगादिकृद्युगावर्तो नैकमायो महाशनः अदृश्यो व्यक्तरूपश्च सहस्रजितनन्दजितो शिष्टो विशिष्टश्चिष्टेष्टश्चिखण्डी नहुषो वृढः क्रोधः क्रोधकृत्कर्ता विश्ववाहुमीयः अच्युतः प्रतिजाप्राणः प्राणदो वासवानुजः अपान्यजिरजिष्ठानोम प्रमत्तः प्रतिष्ठितः स्कन्धस्कन्धधरो दुर्यो वरदो वायुवाहनः वासुदेवो बृहद्भानुरादिदेव पुरन्दरः अशोकस्तारणस्तारशूरशौरिर्जनेश्वरः अनुकूलशतावर्तः पद्मी पद्मनिवेक्षणः पद्मनाभोरविन्दाक्षः पद्मगर्भशरीरभृद महर्जिर्वृद्धो वृद्धात्मा महाक्षो गरुडध्वजः अतुलश्चरभो भीमः समयज्ञो हविर्हरिः सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः इक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः महीधरो महाभागो वेगवान्विदाशनः उद्भवाक्षोणो देवश्रीगर्भः परमेश्वरः करणम् कारणम् कर्ता विकर्ता गहनो गुहः व्यवसायो व्यवस्थानः संस्थानस्थानदो ध्रुवः परधिः परमस्पष्टस्तुष्टपुष्टश्रुवेक्षणः रामो विरामो विरजो मार्गो नेयो नयो नयः वीरशक्तिमतांशेष्ठो धर्मो धर्मविदुत्तमः वैकुण्ठः पुरुषः प्राणः प्राणः प्रणवः पृथुः हिरण्यगर्भश्चतुघ्नो व्याप्तो वायुरोक्षयः ऋतुस्सुदर्शनकालः परमेष्ठी परिग्रहः उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः विस्तारस्तावरस्थाणो प्रमाणम् बीजमव्ययम् अर्थोऽनर्थो महाकोशो महाभोगो महाधनः अनिर्विण्णस्थविष्ठो भूर्धर्मयोगो महामहः नक्षत्रनेमिर्नक्षत्री क्रमः कामसमीहः यज्ञो महेज्यश्चकृतस्तत्रंसदाङ्गतिः सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् सुव्रतसुमुखसूक्ष्मसुघोषसुगदसुहृत मनोहरोचितक्रोधो वीरबाहुर्विदारणः स्वापनस्ववशो व्यापी नैकात्मा नैककर्मकृत वत्सरो वत्सरो वत्सीरत्नगर्भोधनेश्वरः धर्मगुप्धर्मकृद्धर्मी सदतत्क्षणमक्षरम् अभिज्ञाता सहस्रांशुर्विधाता कृतलक्षणः भवति निमिषत्वस्तमहेश्वरः आदिदेवो महादेवो देवेशो देवभृद्गुरुः उत्तरो भोपतिर्भोक्ता ज्ञानगम्यः पुरातनः शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः सोमपो मृतवः सोम पुरुहितपुरुषतमः विनयो जयस्त्रो दाशारः सात्वरापलिः जीवो जीवसाक्षी मुकुन्दो मितविक्रमः अम्भो विजयन्तात्मा महोदधिषयोऽन्तरः अयो महारः स्वाभाव्यो निदामितः प्रमोदः आनन्दो नन्दोऽनन्दः सत्यधर्मः त्रिविक्रमः महर्षिकविराजार्य कृतज्ञो मेनीपतिः त्रिपदस्त्रिजराध्यक्षो महाशृङ्गकृतान्तरः महाबलाहो गोविन्दस्वरेण कनकाङ्गजी गुह्यो गभीरो गहनो गुप्तश्चक्रकलादरः वेधास्वाङ्गोजितः कृष्णो दृश्यङ्कर्षणोचिरः वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः भगवान् भगवानन्दी वनमादिहरायुधः आदित्यो ज्योतिरादित्यस्तविष्णोतिसत्तमः सुसन्वाखण्डपरशुरदारुणो द्रविणप्रदः निवस्पत्सर्वदुर्व्यासो वाचस्पतिः तिसामासामगस्ताम निर्वाणम् भेषजम् विषभ सन्न्यासकृत्समश्चान्तो निष्ठाशान्ति परायणम् शुभाङ्गश्चान्तः गोहितो गोपजगोक्ता वृषभाक्षो वृषप्रियाः अनिवर्ति निवृत्तात्मा संक्षेप्ताक्षेमकृशिव श्रीवत्सवक्षा श्रीवास श्रीमति श्रीमताम्बरः श्रीधर श्रीधर श्रीनिवास श्रीनिधि श्रीविवावनः श्रीधर श्रीकलश्रेय श्रीमान् लोकत्रयाश्रयः स्वक्षस्वङ्गश्चदानन्दो नन्दिर्ज्योतिर्गणेश्वरः विजितात्मा विधेयात्मा सत्येर्निश्चिन्नसंश्रयः उदीर्ण सर्वदश्चक्षुरनीशश्चाक्रस्थितः भूषयो भूषणो भूतिर्विशोकश्चोपनाशनः अर्चिष्मानर्जकुम्भो विशुद्धात्मा विशोधनः अनिरुद्धो प्रतिरथ प्रद्युम्नो मितविक्रमः कारणे मिहावीरश्च वृषूरजनेश्वरः त्रिलोकात्मा त्रिलोकेश केशवकेश्याहिः कामदेव कामपादः कामीकान्तः कृतागमः अनिर्देशवपुरविष्णुर्वीरोऽनन्तो धनञ्जयः ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः महाक्रमो महाकर्मा महातेजा महोरगः महाक्रतुर्महायज्वा महायज्ञो महाहविः स्तव्यस्तव प्रियस्तोत्रम् स्तुतिस्तोदारणप्रियः पूर्णः पूरयिता पुण्यः पुण्यकीर्तिनामयः मनोजवस्तीर्थकरो वसुवेता वसुप्रदः वसुप्रदो वासुदेवो वसुर्वसुनाविः सद्गतिः सत्कृतिस्तत्तासद्भूतिः सत्परायणः शूरसेनो यश्रेष्ठस्सन्निवासस्मयामः भूतावासो वासुदेवः सर्वासु निलयो नः दर्पः दर्पदो दृप्तो दुर्धरोधा पराजितः विश्वमूर्तिर्महामूर्तिर्दीपदमूर्तिरमूर्तिमान् अनेकमूर्तिरव्यक्तश्रतमूर्तिशदानः एको नैकस्वः कः किं यत्तत्पदमनुत्तमम् लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्द्रनाङ्गली वीरा विषमशून्यो धृताशीरजलश्चलः अमानी मानदो मान्यो लोकस्वामी त्रिलोकद्रुः सुमेधा मेधयोधन्यः सत्यमेधाधराधरः तेजो वृषोद्युतिधरः सर्वशस्त्रपुराङ्गरः प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपाद समावर्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः दुर्लभो दुर्गमो दुर्गो द्वावासो द्वार्या शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः उद्भवस्सुन्दरस्तुन्दोरत्नाभस्तुलोचनः अर्को वाच पुनश्शृङ्गी जयन्तः सर्वविजयी सुवर्णबिन्दुरक्षोभ्यः सर्वभागीश्वरेश्वरः महारथो महाभ्यर्थो महाभूतो महाभिः कुन्दर 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 पर्जन्यपावनो निलः अमृतांशो मृतवपुः सर्वज्ञः सर्वतोम्भः सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुरापणः न्यक्रोधो दुम्बरोश्चत्तश्चाणूरान्वनिषूनः सहस्रार्चिः सप्तयुः सप्तविधाः सप्तवाहनः अमूर्तिरनवोशिन्त्यो भयकृद्भयनाशनः अणुर्बृहत्कृतस्थूलो गुणवृन्निर्गुणो महान् अधृतस्वधृतस्वास्य प्राग्वंशो वंशवर्धनः भारभृत्कथितो योगी योगीश सर्वकामणः आश्रमश्रमणाश्रामसुवर्णो वायुवाहनः धनुर्धरो धनुर्वेदो दण्डो दमयितादमः अपराजितः सर्वसहो नियन्ता नियमो यमः सत्त्ववान् सात्विकः सत्यः सत्यधर्मपरायणः अभिप्रायप्रियाहोरः प्रियकृत्नीतिवर्धनः विहाय सगतिर्ज्योतिर्सुरुचिर्हुतभुग्विभुः रविर्विलोचनः सूर्यः सविता रविलोचनः अनन्तो हुतभुभोक्ता सुरदो निग्रजोग्रः अनिर्विण्यः सदामर्षीलोकाधिष्ठानमद्भुतः सनात्सनातनतमः कविः कविरव्ययः स्वस्तिरः स्वस्तिकृस्वस्ति स्वस्तिः स्वस्तिरक्षणः अरौद्रः कुण्डली चक्री विक्रम्योषिदशासनः शब्दादिकशब्दशः श्रीशिरश्चर्वरीकरः अक्रूरः क्रेशरो दक्षो दक्षिणः क्षम्याम्बरः विद्वत्तमो वीतवयः पुण्यश्रवणकीर्तनः उत्तारणो दुष्कृत्यः पुण्यो दुःस्वप्नाशनः वीरः रक्षणस्तन्तो जीवनः पर्यवस्थितः अनन्तरूपोऽनन्तश्रीर्मितमन्निर्भयाप चतुरस्रोकवीरात्मा विदिशो व्याधिरोजितः अनादिर्भूर्भोरग्मी सुवीरोऋषिराङ्गदः जननो जनजन्मादिर्भीमो भीमपराक्रमः आधारनिलयोधाता पुष्पहास प्रजागरः ऊर्ध्वगस्तत्पदाचार प्राणद प्रणवपणः प्रमाणम् प्राणनिलय प्राणवृत्प्राणजीवनः तत्त्वम् तत्त्वविवेकात्मा जन्ममृत्युजरादिवः भूर्भुवस्वस्तरुस्तारस्तभिः प्रभिधामहः यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः यज्ञभृद्यज्ञभृद्यज्ञी यज्ञभुवि यज्ञसाधनः यज्ञान्तकृति यज्ञभुयो मन्नमन्नाथ एव च आत्मयो निष्वयम् जातो वैभानस्तामरायणः देवीनन्दनस्रष्टाक्षिलीशपापनाशनः शङ्खभृन्दन्दकीशकीशाङ्गन्वाकदाशनः तथाङ्गपाणिरक्षोभ्यः सर्वप्रहणायुधः सर्वप्रहणायुध ॐ नमः।